इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य रूस देशस्य कजान नगरे ब्रिक्स इति शिखर सम्मेलनावधौ चीन देशीयेन राष्ट्रपतिना शी जिनपिंग इत्यमुना साकं द्विपक्षीय संवादं कुर्वन्नस्ति। सर्वोच्च न्यायालयेन उक्तं यत् वायुगुणवत्ता प्रबन्धनायोगस्य CAQM इत्यस्य अधिनियमान्तर्गतं धान्यापशिष्ट दहन दण्डस्य प्रावधानं कार्यान्वितं न भवति। केरले कांग्रेस प्रत्याशिना प्रियंका गांधीना अद्य मध्याह्ने वायनाड संसदीय क्षेत्रा स्वीय नामांकनं निवेदितम्। दाना चक्रवातस्य आगमनात् पूर्वं उड़ीसा प्रशासनेन संचेतना प्रसारिता, शिक्षण संस्थानानि च दिनत्रयं यावत् पिहितानि। अपि च क्रीडावार्तायां, क्रिकेट प्रतिस्पर्धायां भारत न्यूजीलैंड दलयोर्मध्ये द्वितीया क्रिकेट निकष स्पर्धा श्वः पुणे नगरस्य महाराष्ट्र क्रिकेट संघ क्रीडांगणे प्रातः 9:30 भविष्यति। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य रूस देशस्य कजान नगरे ब्रिक्स इति शिखर सम्मेलनावधौ चीन देशीयेन राष्ट्रपतिना शी जिनपिंग इत्यमुना साकं द्विपक्षीय संवादं कुर्वन्नस्ति। उपवेशनमिदं वास्तविक नियन्त्रण रेखायाः प्रहरित्व प्रबन्धनमाधृत्य चीन भारत देशयोर्मध्ये सजात निर्णायकस्य अनन्तरं महत्वपूर्णम् अस्ति। प्रधानमन्त्रिणः श्रीमोदिनः चीनदेशस्य राष्ट्रपतेः मध्ये एतत् उपवेशनं विगतेषु पञ्चवर्षेषु प्रथमं सुनियोजितम् उपवेशनमस्ति। ह्यः श्रीपुतिनेन साकं जाते उपवेशने श्रीमोदी सबलं प्रतिपादितवान् यत् भारतं रूस युक्रेन देशयोः संघर्षस्य शान्तिपूर्ण समाधानाय साहाय्यं दास्यति। विदेश सचिवः विक्रम मिश्री इत्येषः वार्ताहरान् सम्बोधितवान् यत् श्रीमोदी राष्ट्रपतिना श्रीपुतिन इत्यनेन साकं जातस्य संवादस्य विषये सूचना प्रदत्तवान्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य ब्रिक्स राष्ट्रेभ्यः आतंकवादं आतंकवित्तपोषणं च निवारणाय सम्भूय सहकार्यं कर्तुम् आहूतवान्। सः अवदत् यत् एतादृशे गभीरविषये द्विगुणमनोभावस्य स्थानं नास्ति। कजाननगरे 16वें ब्रिक्स शिखर सम्मेलनस्य समापन सत्रे श्रीमोदी यूनां मध्ये कट्टरतावादं निवारयितुं सक्रिय पदक्षेपानां आवश्यकतायाः उपरि बलं दत्तवान्। सः संयुक्त राष्ट्र संघस्य अन्ताराष्ट्रिय आतंकवाद सम्बद्धस्य व्यापक सम्मेलनस्य लम्बित विषये एकत्र कार्यं कर्तुम् आवाहनं कृतवान्। सर्वोच्च न्यायालयेन उक्तं यत् वायुगुणवत्ता प्रबन्धनायोगस्य CAQM इत्यस्य अधिनियमान्तर्गतं धान्यापशिष्ट दहन दण्डस्य प्रावधानं कार्यान्वितं न भवति। सर्वोच्च न्यायालयेन उक्तं यत् वायुगुणवत्ता प्रबन्धनायोगस्य CAQM इत्यस्य अधिनियमः वायुप्रदूषणं निवारणाय विधेः कार्यान्वयनाय च आवश्यक यन्त्राणां निर्माणं विनैव निर्मितः। केन्द्रस्य प्रतिनिधित्वेन ऐश्वर्या भाटी न्यायालयाय आश्वासनं दत्तवती यत् 10 दिवसेषु अधिनियमाः अन्तिमरूपेण निर्धारिताः पूर्णतया कार्यान्विताः च भविष्यन्ति। पंजाब हरियाणा राज्ययोः सर्वकारेण दोषिणः विरुद्धं धान्यावशिष्ट दहन विषये किमपि कार्याचरणं न सम्पादितम्। अस्मिन् विषये अपि सर्वोच्च न्यायालयेन उक्तम्। केरले कांग्रेस प्रत्याशिना प्रियंका गांधीना अद्य मध्याह्ने वायनाड संसदीय क्षेत्रात् स्वीय नामांकनं निवेदितम्। अस्मिन् निर्वाचन क्षेत्रे उपनिर्वाचनं अग्रिम मासस्य 13 दिनांके चेलाकारा पलक्कड़ विधानसभा क्षेत्रैः सह भविष्यति। निर्वाचन द्वन्द्वे प्रियंका गांधीनः अयं प्रथमः पदक्षेपः भविष्यति। कलपेट्टा नगरे तस्याः आगमने भव्यं स्वागतम् अभवत्। तत्र सहस्रशैः दलकार्यकर्तृभिः करताडनेन ध्वजोत्तोलनेन सहैव जयघोषेण सह तस्याः स्वागतं कृतम्। सा विपक्षनेत्रा राहुलगांधिना एआईसीसी महासचिवेन सी वेणुगोपालेन सह तथैव कांग्रेसस्य एवं यूडीएफ गठबंधनस्य सहयोगिभिः सह पथप्रदर्शने भागं गृहीतवती। प्रियंका गांधीना सह कांग्रेस अध्यक्षः मल्लिकार्जुन खड़गे लोकसभायां, विपक्षनेत्रा राहुलगांधी कांग्रेस संसदीय दलस्य नेत्री सोनिया गांधी इत्येषापि आसीत्। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। शिवसेना दलेन राष्ट्रवादी कांग्रेस दलेन च आगामिने महाराष्ट्र विधानसभा निर्वाचनार्थं स्वप्रत्याशिनां नामोद्घोषणं विहितम्। राष्ट्रवादी कांग्रेस दलेन अद्य महाराष्ट्र विधानसभा निर्वाचनार्थं 38 प्रत्याशिनां स्वीय प्रथमा सूची निस्सारिता। तत्र उपमुख्यमंत्री अजीत पवार बारामती निर्वाचन क्षेत्रात् वर्तते, यस्य सः वर्तमाने प्रतिनिधित्वं कुर्वन्नस्ति। अपरत्र छगन भुजबल इत्येषः येओलातः, दिलीप वलसे पाटिलः अम्बेगांव क्षेत्रात्, हसन मुश्रीफः कागलतः, धनंजय मुंडे च परलीतः निर्वाचन द्वन्द्वे भागं भजिष्यति। विधानसभायाः उपाध्यक्षः नरहरी झिरवालः, धर्मराव आत्रामः, अदिति तटकरे इत्येते क्रमशः डिंडोरी अहेरी श्रीवर्धन क्षेत्रैः निर्वाचन द्वन्द्वे आगन्तुं सन्नद्धाः सन्ति। शिवसेनया स्वीय 45 प्रत्याशिनां समुद्घोषणा कृता। तत्र मुख्यमंत्री एकनाथ शिंदे इत्येषः कोचरी पचपाखड़ी क्षेत्रात् पुनः निर्वाचने भागं भजिष्यति। अस्य क्षेत्रस्य सह वर्तमानेपि प्रतिनिधित्वं कुर्वन्नस्ति। एतदतिरिच्य राज्यमंत्री अब्दुल सत्तारः सिल्तो क्षेत्रात्, संजय राठौड़ः दिग्रस क्षेत्रात्, संतोष बांगरः कलमनूरीतः, सहैव संजय शिरसाट छत्रपति संभाजीनगर पश्चिमतः निर्वाचने भागं ग्रहीष्यति। अत्रांतरे महाराष्ट्र नवनिर्माण सेनया अपि 45 प्रत्याशिनां स्वीया द्वितीय सूची निस्सारिता। मनसे प्रमुखस्य राज ठाकरे इत्यस्य पुत्रः अमित ठाकरे माहिम क्षेत्रात् निर्वाचनार्थं सन्नद्धो वर्तते। एनडीएआरएफ इत्यनेन दानाचक्रवातस्य आगमनात् पूर्वं ओडिशायां 20 दलानि तथैव पश्चिम बंगाले 13 दलानि नियोजितानि सन्ति। दानाचक्रवातस्य आगमनात् पूर्वं ओडिशा प्रशासनेन संचेतना प्रसारिता, शिक्षण संस्थानानि च दिनत्रयं यावत् पिहितानि। नवदिल्ल्यां वार्ताहरैः सह संवादकाले एनडीआरएफ इत्यस्य उपमहानिरीक्षकेन मोहसेन शाहिदी इत्यमुना कथितं यत् पश्चिम बंगाले 4 दलानि भिन्नतया स्थापितानि सन्ति। तेन प्रोक्तं यत् आन्ध्रप्रदेशस्य विजागस्थानेपि सन्नद्धता वर्तते। उपमहानिरीक्षकेन कथितं यत् छत्तीसगढ़ेन सह झारखण्डेपि दलानि सन्नद्धानि सन्ति। देशे ऋतोः पूर्वानुमानं सम्प्रति ग्रामपञ्चायतस्तरेषु अपि उपलब्धो भविष्यति। ग्रामपञ्चायतानां कृते ऋतोः पूर्वानुमानं प्रदातुं प्रतिहोरासु ऋतोः पूर्वसूचनायाः निरीक्षणस्य सौविध्येन सह श्वः आरभ्य एकं महत्वपूर्णं परिवर्तनकारी च उपक्रमं सर्वकारेण समारभ्यते। पञ्चायतीराजमन्त्री राजीव रंजन सिंहः नवदिल्ल्याम् अस्य उपक्रमस्य शुभारम्भं करिष्यति। सर्वोच्च न्यायालयस्य वायुगुणवत्ता प्रबन्धनायोगस्य च निर्देशानाम् अनुपालनेन धान्यापशिष्ट दहन प्रकरणेषु न्यूनताम् आनेतुं पंजाब आरक्षिणः कृषकान् धान्यापशिष्ट दहनस्य हानिकारक प्रभाव विषये शिक्षितुं तथा च दोषिणः विरुद्धं विध्याधारितं कार्याचरणं कर्तुं बृहद् अभियानं समारब्धं कृतमस्ति। आरक्षी विधि व्यवस्थायाः महानिदेशकाय अर्पित शुक्लवर्याय निरीक्षणाय समुचित कार्याचरणाय च नियुक्तः अस्ति। क्रिकेट प्रतिस्पर्धायां भारत न्यूजीलैंड दलयोर्मध्ये द्वितीया क्रिकेट निकषस्पर्धा श्वः पुणे नगरस्य महाराष्ट्र क्रिकेट संघ क्रीडांगणे प्रातः 9:30 भविष्यति। प्रधानमंत्री नरेन्द्र मोदी इत्येषः अक्टूबर मासस्य 27 दिनांके आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे देश विदेशस्थ जनैः सह स्वविचाराणां विनिमयी करिष्यति। इदं मासिक रेडियो कार्यक्रमस्य 15 शततमं संस्करणं भविष्यति। इति वार्ताः।